सर्वेभ्यो नमस्कारः। अस्माकं विषयः अस्ति सप्तमी विभक्ति इति। गतवर्गे वयं किञ्चित् अभ्यासं कृतवन्तः सप्तमी विभक्ति, तस्य प्रयोगः, रूपम् अपि प्रयोगः, एतद् एव अस्माकं विषयद्वयम् अस्ति। तत्र उदाहरणार्थं वदामः, मीनः जले तरति, तत्र जलमस्ति, मीनः अस्ति, मीनः जले तरति, अथवा लेखनी अस्ति, उत्पीठिका अस्ति, लेखनी उत्पीठिकायाम् अस्ति, उत्पीठिका इति पदम् अस्ति, तस्य सप्तमीविभक्तिरूपम् अस्ति उत्पीठिकायाम् इति। फलानि सन्ति, स्थालिका अस्ति, फलानि स्थालिकायां सन्ति इति वक्तुं शक्नुमः। तत्र वृद्धः अस्ति, आसन्दः अस्ति, वृद्धः आसन्दे उपविशति इति सप्तमीविभक्तिरूपस्य प्रयोगः। कुत्र अस्ति, कोऽपि कुत्र अस्ति इति वक्तुम् इच्छामः चेत् सप्तमीविभक्त्यन्तं पदं तस्य उपयोगः भवति। केवलं कुत्र अस्ति इति न, कदा, अहं वर्गः कदा भवति इत्युक्ते वर्गः अष्टवादने वर्गः भवति इति, तत्रापि सप्तमीविभक्तिरूपस्य एव प्रयोगः भवति। अस्तु, किञ्चित् गृहपाठस्य पूर्वं किञ्चित् एतत् सप्तमीविभक्त्यन्तस्य अभ्यासः कुर्मः। सरलभगिनी नमस्कारः। हरि महोदय नमस्कारः।
नमस्कारः महोदय।
एतत् हरि महोदय वा? हरि महोदय नमस्कारः। भारतदेशात् इदानीं दूरवाण्या द्वारा? अस्तु अस्तु, समीचीनमस्ति वा?
अहं हाफ् एन् अवर् इति यात्रा करोमि।
अस्तु अस्तु अस्तु, तदनन्तरं
अहं पुस्तकं न
अस्तु शृणोतु 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 महोदय, चिन्ता मास्तु।
अहं केवलं शृणोमि।
अस्तु महोदय, चिन्ता मास्तु, चिन्ता मास्तु, शृणोतु। अस्तु, नमस्कारः। अस्तु, इदानीम् एतत् कुर्मः। अहम् एतत् वदामि, तस्य सप्तमीविभक्तिरूपस्य वाक्यं वदतु। यदि अहं वदामि बालकः विद्यालयः पठति इति, तत्र बालकः विद्यालये पठति इति, इदानीं कुर्मः। सरला भगिनी, भक्ताः देवालयः अर्चन्ति, भक्ताः अर्चन्ति देवालयः, भक्ताः देवालये अर्चन्ति, समीचीनं भगिनि। इदानीं गीताञ्जलि भगिनि, यानानि, यानं जानाति खलु, यानं, लोकयानम् इति, यानानि गच्छन्ति, मार्गः, मार्गः अस्ति, यानानि कुत्र गच्छन्ति,
मार्गे गच्छन्ति,
यानानि मार्गे गच्छन्ति, समीचीनं। इदानीं अध्यापिका अस्ति, नरेश
महोदय,
अध्यापिका पठति पुस्तकालयः, अध्यापिका कुत्र पठति, अध्यापिका पुस्तकालये पठति, समीचीनं महोदय। अस्तु, इदानीं स्त्रीलिङ्गस्य किञ्चित् पुनस्मरणं। रघुपति महोदय नमस्कारः, सुप्रभातं।
नमस्कारं,
नमस्कारं महोदय,
विलम्बेन
आगतः। चिन्ता मास्तु महोदय, अत्र उदाहरणमेव इदानीं कुर्मः। अकारान्तपुल्लिङ्गं कृतम्, इदानीम् आकारान्तस्त्रीलिङ्गं। पुष्पाणि विकसन्ति कुत्र, लता इति, पुष्पाणि लता लतायां विकसन्ति, समीचीनं। रघुपति महोदय, भवान् भवतः उत्तरदायित्वम् इदानीं बालिका छात्राः पठन्ति पाठशाला, छात्राः कुत्र पठन्ति?
छात्राः पाठशालायां पठन्ति.
हा, छात्राः पाठशालायां पठन्ति. अस्तु, इदानीं भानु भगिनी.
महोदय,
वत्सः रघुपति महोदय, केवलम् अहं कुत्रापि न लिखितम्, अहं केवलं वाक्यं वदामि, तदनन्तरं गीतासोपनं गच्छामः. केवलं पञ्चवाक्य उदाहरणार्थं तावदेव. भानु भगिनी, तत्र वानरः उपविशति, वानरः शाखा अस्ति, वानरः कुत्र उपविशति? शाखा
अस्ति.
हा, इदानीं वाक्यमस्ति, वानरः
शाखायाम्
उपविशति. समीचीनं भगिनि. अस्तु, इदानीं अस्तु, तत् अकारान्त पुल्लिङ्ग आकारान्त स्त्रीलिङ्ग तावदेव. अस्तु, इदानीं गीतासोपानं गच्छामः. हा, तत्र गत गतवर्गे वयं सर्वनामानां सप्तमीविभक्ति अपि कृतवन्तः, तस्मिन् एतस्मिन् कस्मिन् भवति सर्वस्मिन् मयि त्वयि एतादृशं सर्वं. हा, तत्र एकं वक्तव्यमस्ति, सप्तमीविभक्तिरूपस्य प्रयोगः कुत्र इति तस्मिन् सन्दर्भे भवति, कुत्र इति, कुत्र कोऽपि कुत्र अस्ति, अत्र कुत्र उपविशति, सप्तमीविभक्तिरूपस्य प्रयोगः भवति. अपि कदा इति, तस्यापि प्रश्नः अस्ति कदा इति, तत्रापि उत्तरं भवति सप्तमीविभक्तिरूपस्य उत्तरं. किन्तु अन्यदपि, तस्य उपरि वयम् अन्यदपि दृष्टवन्तः. कोऽपि वदति वा कीदृशः प्रयोगः सप्तमीविभक्तिपदस्य रूपस्य अन्यत्, कुत्र इति न, कदा इति न, सतिसप्तमी अस्ति, तदपि वयं न कृतवन्तः. अग्रे आगच्छति, समीचीनं भगिनी. किन्तु गतवर्गे वयं किञ्चित् कृतवन्तः, कोऽपि कुत्र अस्ति इति न, किन्तु विश्वासः कुत्र अस्ति, आसक्तिः कुत्र अस्ति, तत् देशः नास्ति, विद्यालयम् एतादृशः नास्ति, किन्तु तादृश अर्थे अस्ति. विश्वासः कुत्र अस्ति, आसक्तिः कुत्र अस्ति, अभिमानः कुत्र अस्ति, रुचिः कुत्र अस्ति इति, तादृशवाक्यानि, तदेव गृहपाठः आसीत्. अस्तु, तादृशवाक्यानि रचयन्तु इति, यथा धर्मे आसक्तिः भवतु, अथवा न, मम गीतायाम् अभिरुचिः अस्ति इति, तादृशः वाक्यानि रचयन्तु इति. अस्तु, कः वदति? सरला भगिनी वदति वा?
अस्तु, ग्रामे रात्रौ, ग्रामे रात्रौ जनाः रामायणकथायां श्रवणं कुर्वन्ति.
अस्तु अस्तु भगिनि. हा, अस्तु, नरेश महोदय.
आम् महोदय, पञ्चवाक्यानि.
अस्तु,
मम संस्कृतं पठने रुचिः अस्ति. भवतः क्रीडायां रुचिः अस्ति.
महोदय, नरेश महोदय, प्रथमवाक्ये तत्र संस्कृतपठने तत् पदद्वयम् अथवा एकमेव संयुक्तपदम्?
द्वयम्.
हा, द्वयम् अस्ति चेत् संस्कृत पठने इति, संस्कृते, हा, संस्कृते कर्तुं शक्नोति, नो चेत् संस्कृतस्य पठने इति.
संस्कृतस्य पठने.
हा,
ओके,
पठनमिति विषयः अस्ति चेत् संस्कृतस्य पठनं, केवलं संस्कृतभाषा इति वक्तुम् इच्छति चेत् संस्कृते इति अपि वक्तुं शक्नोति.
भवतः क्रीडायां प्रीतिः अस्ति, रमायाः देशभक्त्याम् अभिरुचिः अस्ति.
पुनरेकवारं महोदय.
रमायाः देशभक्त्याम् रमायाः देशभक्त्याम् अभिरुचिः अस्ति. तव गुरौ विश्वासः अस्ति.
तव गुरौ
अस्ति.
हा, समीचीनं महोदय.
राकेशस्य भक्ति अस्ति.
राकेशस्य
पितरि भक्तिः अस्ति.
हा, समीचीनं महोदय, समीचीनं. हा, अस्तु. गीताञ्जलि भगिनी वदति वा?
आं महोदय. संस्कृतौ अभिमानः न्यूनतम् कुरुते.
संस्कृतौ इति कस्य पदस्य सप्तविभक्ति? संस्कृतिः. हा, तत् स्पष्टीकरणार्थमेव पृष्टवान्. धन्यवादः भगिनि. अस्तु. हा,
संस्कृतिः सप्तमी विभक्ति. संस्कृतौ अभिमानः न्यूनतम् कुरुते. सम्यक्.
न्यूनतया अथवा न्यूनतया कुरुते इति प्रायशः तृतीया.
न्यूनतया कुरुते. स्वधर्मे जनानां मतिः अस्ति. संस्कृते प्रीतिः सदा वर्धयति.
अस्तु. हा,
गुरौ अवश्यं भवति. परधर्मे जनाः अनासक्तिः भवति.
परधर्मे
परधर्मे
षष्ठीविभक्ति अपेक्षितं.
क्षम्यतां
महोदय. न, समीचीनं भगिनि. अस्तु. हा,
परधर्मे जनानाम् अनासक्तिः भवति.
हा, समीचीनं भगिनि, समीचीनं. धन्यवादः. पञ्चवाक्यानि खलु?
आं महोदय.
हा, धन्यवादः भगिनि. हा, भानु भगिनी वदति वा?
आं महोदय. अस्माकं परधर्मे विश्वासः अस्ति. अस्माकं कार्ये अनासक्तिः अस्ति. अस्माकं मातरि प्रीतिः अस्ति. मम गुरौ भक्तिः अथवा प्रीतिः अस्ति.
समीचीनं भगिनि.
मम स्वधर्मे अभिमानः अस्ति.
अन्तिमवाक्यं पुनरेकवारं भगिनि.
मम स्वधर्मे अभिमानं वा अभिमानः अस्ति वा महोदय?
अभिमानः तत्र एव दत्तमस्ति भगिनि. तत्र 68 पुटसङ्ख्या मध्ये एव पञ्चम अभ्यासे अभिरुचिः मतिः विश्वासः अभिमानः अपि तत्रैव अस्ति. पुल्लिङ्गे एव अस्ति. पश्यति वा?
अस्तु महोदय.
अस्तु अस्ति खलु तत्र
पञ्चवाक्यम्.
पञ्चवाक्यं समीचीनं भगिनि, धन्यवादः. सरलभगिनि, भवती एकमेव वाक्यम् उक्तवती. क्षम्यतां क्षम्यतां भगिनि, अहं चिन्तितवान् अस्तु सर्वे एकमेकं वदन्ति इति, किन्तु इदानीं वदतु भगिनि, क्षम्यताम्.
अद्य सर्वे पितृषु तेषां सम्मानं प्रकटं कुर्वन्ति. सर्वे मम पितृदिवस्य अद्य क्रिकेट् क्रीडादले अस्माकं गर्वः
पुल्लिङ्गे इति
गर्वकर्तृपद भवति. न केवलं गुरौ किन्तु शास्त्रेषु अपि विश्वासः करणीयम्. यदा कुशलतया कार्यं करोति तदा तस्मिन् सफलता प्राप्येत्. अहं तस्य सतीसप्तमी लिखितवती, कुशलतया कार्ये कृते तस्मिन् सफलता प्राप्येत्.
अस्तु भगिनि, समीचीनं. इदानीं वयं न कृतवन्तः किन्तु उदाहरणं समीचीनमेव अस्ति. अग्रे गत्वा प्रायशः सतीसप्तमी अत्र न भवति इति मन्ये. गीतासोपाने नास्ति प्रायशः, प्रवेशे गीताप्रवेशे प्रथमभागे अस्ति इति मन्ये. अस्तु, किन्तु तद् समीचीनप्रयोग. धन्यवादः भगिनि. धन्यवादः. रघुपतिमहोदय वदति वा भवान् अपि?
आं महोदय. मम
तत्र पेज् 68 दृष्ट्वा तादृशवाक्यानि, पञ्चवाक्यानि.
गुरौ मम गुरौ गुरौ मम गुरौ मम विश्वासः अस्ति. संस्कृति इकारान्त अस्ति, इकारान्त स्त्रीलिङ्ग अस्ति वा?
संस्कृतिः इति अहं चिन्तयामि मति शब्दवत् इति.
संस्कृतौ जनानाम् अभिमानः भारतीयसंस्कृत्यौ जनानाम् अभिमानः वर्धते.
संस्कृतौ
ओके, संस्कृतौ इकारान्त ओके कार्यं
तत्र ह्रस्व इकार इति कृत्वा हरिशब्दवत् हरौ इति
हरौ ओके कार्यं.
महोदय, भारतीयसंस्कृतौ भारतीयविशेषणम् अस्ति
न, समस्तपद भवति चेत् भारतीयसंस्कृतौ.
धन्यवादः. अस्तु महोदय,
भारतीयौ
समस्तपदं भारतीयसंस्कृतौ एकपदम्.
किन्तु विशेषणमस्ति चेत् सत्यं भगिनि यद् उक्तवती, तत्र तस्यापि षष्टी या सप्तमी विभक्ति भवेत्. तत्र भारतीया इति अस्ति, भारतीया संस्कृतिः इति भवति. संस्कृतिः स्त्रीलिङ्गे अस्ति, अतः भारतीयः इति पुल्लिङ्गे, भारतीया इति प्रायशः स्त्रीलिङ्गे.
पुल्लिङ्गे भारतीय पुल्लिङ्गपदं सप्तमी
न तत्र पुल्लिङ्गपदस्य सप्तमी न कर्तुं शक्नुमः. रघुपतिमहोदय, भवतः चिन्ता किं? न तत्र यदि समस्तपदं नास्ति चेत् भवान् किं वदति? संस्कृतिः इति स्त्रीलिङ्गे अस्ति, स्त्रीलिङ्गे अस्ति महोदय, अतः भारतीया इति भवति खलु प्रथमविभक्ति. भारतीया संस्कृतिः इति भवति,
भारतीयां संस्कृतौ
हाँ भारतीयां
संस्कृतं संस्कृतं
हाँ इति यदि पदद्वयम् अस्ति चेत् भारतीयां संस्कृतौ हाँ
इति अहम् अस्तु महोदय धन्यवादः महोदय
सरला भगिनी किम् उक्तवती
संस्कृत्यां
भारतीयां संस्कृत्याम् अपि तदपि हा स्त्रीलिङ्गम् इति तत् प्रदर्शयति हा सत्यं
मातरि मम भक्तिः अस्ति संस्कृतं संस्कृते संस्कृते इदानीन्तनकाले संस्कृते जनानां प्रीतिः अधिकम् अधिकः प्रीतिः अधिकः भवति अथवा वर्धते जनानां प्रीतिः वर्धते
अस्तु प्रीतिः वर्धते प्रीतिः पुल्लिङ्गे अस्ति वा स्त्रीलिङ्गे अस्ति वा न जानामि
न जानामि
स्त्रीलिङ्गे अस्तु हा स्त्रीलिङ्गे अस्ति चेत् अधिका इति भवति किन्तु वर्धते समीचीनमस्ति
परधर्म परधर्म अनासक्तिः
तदेव करणीयमिति नास्ति महोदय तादृशवाक्यानि वदतु इति भवतः एव चिन्तनं तत्र अन्यत् एकं वाक्यं
स्वधर्मे स्वधर्मे नेमतिः कार्यं कृतं गीता गीता गीतायां जनानाम् अभिरुचिः जनानाम् अभिरुचिः अस्ति
अस्ति समीचीनं महोदय व्याकरणे मम अभिरुचिः अस्ति सन्धिविषये मम अभिरुचिः अस्ति अथवा कठिनसन्धिविषये मम अभिरुचिः नास्ति सुलभव्याकरणविषया विषयेषु मम आसक्तिः अस्ति किन्तु कठिनक्लिष्टव्याकरणविषये मम आसक्तिः नास्ति अनासक्तिः अस्ति इति अनेकानि उदावाक्यानि वयं वक्तुं शक्नुमः अस्तु इदानीम् अग्रे गच्छामः तत्र एतादृशप्रयोगः कथं भवति इति सर्वे ज्ञातवन्तः इति मन्ये अभिमानः अभिरुचिः मतिः विश्वासः रुचिः भक्तिः प्रीतिः आसक्तिः अनासक्तिः एतत् वक्तव्यं चेत् सप्तमी भक्ति तस्य प्रयोगः भवति तत्र तस्य पूर्वं कस्मिन् विश्वासः अस्ति अपि कस्य विश्वासः कस्य विश्वासः कस्मिन् अस्ति इति तत्र षष्ठी अपि सप्तमी विभक्ति तयोः प्रयोगः तत्र भवति अस्तु इदानीम् अग्रे गच्छामः तत्र पुटसङ्ख्या 70 तत् पश्यामः सप्ततिः तत्र कः भानुभगिनी भवती पठति वा
आम् महोदय
सप्तम अभ्यासः
यदोदाहरणं वाक्यानि रचयत उदाहरणं बालः एतस्मिन् विनयं प्रदर्शयति
तत्र एकवारं भानुभगिनी एकनिमिषः तत्र सर्वे एकनिमिषः तत्र पूर्वस्मिन् पूर्वपुटम् एकवारं पश्यन्तु तत्र किम् अस्ति तत् इति पदस् तत् एतत् किं भवत् सर्व सर्वा अस्मद् युष्मद् तेषां पदानां सप्तमीविभक्तिरूपं दत्तमस्ति तस्मिन् तयोः तेषु इति तादृश तदेव इदानीं तस्य आवश्यकता अस्ति अत्र उपयुज्य एतत् अभ्यासं करोतु अस्तु भगिनि
बालः देशः विनयं प्रदर्शयति
तदेव उदाहरणम् तदेव उदाहरणम् इदानीं अग्रिमम्
एषः
न न इदानीं भगिनि बालः सः इति अस्ति आदरम् इति अस्ति बालः सः अपि
इत्युक्ते
तत्र उदाहरणे किं भवति हा उदाहरणे किं भवति तत्र बालः इति पदमस्ति एषः इति पदमस्ति विनयम् इति पदमस्ति प्रदर्शयति इति पदमस्ति कस्य वदतु भगिनि
बालः तस्मिन्
बालः तस्मिन्
आदरं करोति
हा समीचीनं भगिनि प्रथमपदस्य सप्तमीभक्तिरूपम् अपेक्षितं समीचीनं भगिनि बालः तस्मिन् आदरं करोति इति समीचीनं भगिनि हा अग्रिमम् अपि भवती एव कर्तुं शक्यते करोतु भगिनि
बालः भवान् भवत्यः
भवान् इति भवत् शब्दस्य पुल्लिङ्गरूपं तत्र भवत् इति शब्द प्रातिपदिकं मूलरूपं
प्रथमतः
न न न भवतः इति षष्ठी भवति तत्र किमस्ति हा एकनिमिष भगिनि तत्र भवत् इति शब्दः अस्ति वयं बहु किञ्चित् कृतवन्तः पूर्णतया न किन्तु भवत् इति प्रातिपदिकं मूलपदमस्ति तस्य प्रथमाविभक्तिरूपम् अस्ति भवान् इति प्रथमाविभक्तिरूपम् अस्ति तत्र भवन्तौ भवन्तः इति एकवचने द्विवचने बहुवचने भवति तस्य षष्टिविभक्तिरूपम् अस्ति भवतः इदानीं सप्तमीविभक्तिरूपम् अपेक्षितमस्ति तदेव तत्र दत्तमस्ति भवती भवतोः भवत्सु इति
भवत्सु आम् महोदय
इदानीं
पुटे अस्ति महोदय
अस्तु अस्तु भगिनि समीचीनं हा इदानीं करोतु हा
बालः भवती प्रीतिं करोति
समीचीनं भगिनि हा समीचीनम् अस्तु इदानीं अग्रे सरला भगिनी करोति वा
बालः त्वं तस्य सप्तमी भवति त्वयि
कल्यं कथयसि हा इदानीं पूर्णवाक्यं बालः
तस्मिन् त्वयि क्षम्यतां बालः त्वयि वात्सल्यं प्रकटयति
हा समीचीनं भगिनि अग्रिममपि करोतु हा
बालः कः शब्दः तस्य सप्तमी भवति कस्मिन् प्रेम करोति बालः कस्मिन् प्रेम करोति
इति प्रश्नः भवति हा समीचीनं भगिनि अस्तु अन्यत् अपि करोतु हा
बालः भवति इकारान्त स्त्रीलिङ्ग एकवचन षष्ठी सप्तमी भवति भवत्यां तस्य वाक्यम् आगच्छति बालः भवत्यां स्नेहं प्रदर्शयति
समीचीनं भगिनि धन्यवादः अस्तु रघुपतिमहोदय इदानीम्
एकनिमिषं महोदय सा नमृतं प्रदर्शयति बालः सा तस्यां
समीचीनं
बालः तस्यां नम्रतां प्रकटयति
समीचीनं महोदय तत् इति शब्दः तत् इति शब्दस्य स्त्रीलिङ्गे रूपं किं भवति सा इति एतत् इति पदस्य स्त्रीलिङ्गरूपं प्रथमविभक्तौ किमस्ति एषा इति तस्याम् इति समीचीनम् अग्रिमम्
अहं बालः मयि श्रद्धां प्रदर्शयति
समीचीनं महोदय अग्रिममपि करोतु
बालः ते 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 तस्मिन् तेषु ओके बालः तेषु शङ्कां प्रकटयति
हा अस्तु तस्य अन्यरूपमपि अन्यरूपमपि भवति वा यत् रघुपतिमहोदय उक्तवान् तत् समीचीनमस्ति किन्तु तत्र विकल्पः अस्ति वा
आं महोदय
न
न ते इति किं भवति स्त्रीलिङ्गे किं भवति
सः तौ
ते
सा
ते ताः अत्र अतः ते इति द्विवचने भवति तयोः स्त्रीलिङ्गे अस्ति चेत् बाल
बहुवचनं रूपम् एवम् अस्ति महोदय
किं भगिनि
ते इति बहुवचनरूपम् अस्ति दकारान्त पुल्लिङ्गशब्द बहुवचनरूपं
सत्यं भगिनि
सः
तौ ते हा तदेव महोदय उक्तवान् तदेव
किन्तु
स्त्रीलिङ्गे अपि भवति खलु भगिनि सा ते ताः सा ते ताः तत्र अपि अपि नपुंसकलिङ्गे अपि तत् ते तानि इति अस्ति अतः द्विवचने कर्तुमपि द्विवचने अपि कर्तुं शक्नुमः समीचीनं वा भगिनि अस्तु
बालः भवत्सु मैत्रीं करोति प्रकटयति मैत्रीं प्रकटयति
तत्र
भवन्तः बालः बालः भवत्सु मैत्रीं प्रकटयति
समीचीनं महोदय समीचीनम् अस्तु धन्यवादः हा धन्यवादः नरेश् महोदय इदानीं
एते सप्तमी विभक्ति एतेषु बालः एतेषु सौजन्यं प्रदर्शयति सप्तमी विभक्ति तासु बालः तासु गौरवं करोति
समीचीनम् अग्रिमम् अपि
भवत्याः स्त्रीलिङ्ग बहुवचनं सप्तमी विभक्ति भवतीषु
हा नदी नदीषु भवतीषु समीचीनं महोदय
बालः भवतीषु आदरं करोति
हा समीचीनं हा किं भगिनि भानु भगिनि किं
ते स्त्रीलिङ्गशब्दः
सत्यं भगिनि सत्यं 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 समीचीनं यथा ते स्त्रीलिङ्गे अथवा नपुंसकलिङ्गे द्विवचने भवति तत्रापि द्विवचने कर्तुं शक्नुमः समीचीनं भगिनि समीचीनं अस्तु गीताञ्जलि भगिनि अन्तिमत्रयं करोतु भगिनि
बालः एताः एताः इत्युक्ते बालः एतासु भक्तिं प्रकटयति
अस्तु
बालः युष्मासु कृपां करोति
वयं यूयम् अस्तु
युष्मासु
समीचीनं समीचीनं बहुवचने अस्ति युवां यूयं बहुवचने अस्ति सत्यं
बालः अस्मासु विश्वासं प्रदर्शयति
प्रदर्शयति समीचीनं भगिनि अस्तु इदानीम् अत्र अहम् अस्मत् शब्दः युष्मत् शब्दः तस्य अपि सर्व भवत् किम् एतत् तत् तस्य प्रयोगः तस्य रूपं कीदृशम् इति इदानीं दृष्टवन्तः प्रश्नः अस्ति वा तत्र वदतु महोदय महोदय किञ्चित् उच्चैः वदतु महोदय न श्रूयते
एताः इति पुल्लिङ्गम् एवं स्त्रीलिङ्गं बहुवचनमस्ति.
न न न, एताः किमर्थं पुल्लिङ्गपदमस्ति? ते इति भवति. हा, एषः हा एषः एतौ एते इति.
द्वितीया विभक्ति
सः तौ ते. हा अस्तु अस्तु अस्तु, तं ते तान् इति भवति. किन्तु बहुवचने तान् इति अस्ति, ताः इति नास्ति. हा, किन्तु अत्र तु द्वितीयविभक्तिरूपं न दत्तम् अस्ति खलु, प्रथमाविभक्तिरूपमेव दत्तमस्ति. हा, अतः परिवर्तनमस्ति. प्रथमाविभक्तिरूपं दत्तं, तस्य षष्टिविभक्ति सप्तमविभक्तिरूपं करणीयं, न तु द्वितीयविभक्तितः सप्तमविभक्ति खलु. अस्तु अस्तु महोदय, चिन्ता मास्तु. हा, चिन्ता मास्तु. अस्तु, हा अस्तु, अग्रे गच्छामः. हा हा, अन्यप्रश्नः अस्ति वा? अस्तु, अग्रे गच्छामः. इदानीं नरेश् महोदय अग्रे पठति वा?
यस्मिन् अङ्गे ग्रहणं पाठनं प्रहरणम् इत्यादिकं भवति तस्य अङ्गस्य सप्तमी.
महोदय महोदय, तस्य पूर्. हा अस्तु अस्तु, अवधियं वद, अवधियं पठतु एकवारं. हा हा, वद, पठतु महोदय. हा हा,
सप्तमी विभक्तिः भवति.
हा,
कस्मिन् पुनः
महोदय महोदय महोदय, एकनिमिष, अवधेयं यत् भवान् पठितवान्, अर्थः कः?
यस्मिन् अङ्गे ग्रहणं पठनं प्रहरणम् इत्यादिकं भवति तस्य अङ्गस्य सप्तमी विभक्ति भवति.
हा, इदानीम् अष्टम अभ्यासः, तम् अभ्यासं पश्यतु.
कोष्ठके विद्यमानस्य शब्दस्य सप्तमी विभक्तिरूपेण यथोदाहरणं रिक्तस्थानं पूरयत. उदाहरणं, धातुः कण्ठे गृह्णाति.
कुत्र गृह्णाति? कण्ठे गृह्णाति. हा, अत्रापि सप्तमीभक्तिरूपस्य प्रयोगः.
सः
कुत्र ग्रहणं भवति, कुत्र ताडनं भवति, कुत्र प्रहरणं भवति, तत्र सर्वत्र सप्तमीभक्ति विभक्ति. हा,
सः भवन्तं वक्षस्थलं, वक्षस्थले प्रहरति.
इदानीं पूर्णवाक्यं महोदय.
सः भवन्तं वक्षस्थले प्रहरति.
हा, सः भवन्तं वक्षस्थले प्रहरति. समीचीनं महोदय. हा, इदानीं सरलाभगिनी अग्रिमवाक्यं.
दुःशासनः द्रौपदी एषाः अकारान्त स्त्रीलिङ्ग बहुवचनमस्ति, गृह्णाति तस्य सप्तमी विभक्तिभक्ति केशासु. दुःशासनः द्रौपदीं केशासु गृह्णाति.
हा, समीचीनं भगिनि. हा, धन्यवादः. रघुपति महोदय अग्रिमम्.
हा महोदय, भीमः कीचकं मस्तकं मस्तके ताडयति.
हा, वाक्यं.
भीमः कीचकं मस्तके मस्तके ताडयति.
हा, कुत्र ताडयति? मस्तके.
भवान् मां पाद्योः किमर्थं
पाद्योः अथवा पादयोः देवः शब्दः अस्ति, देवशब्दस्य सप्तमीविभक्तिरूपं वदतु भगिनि. देवे इदानीं वाक्यं
भवान् मां पादयोः किमर्थं प्रहरति
समीचीनं भगिनि पादयोः किमर्थं प्रहरति भानु भगिनि
महोदय योद्धः शत्रुम् उदरं ताडयति उदरं अकारान्त न पुंसकलिङ्गशब्द ज्ञानवत् योद्धः शत्रुम् उदरे ताडयति
इति अस्ति हरि महोदय भवान् वक्तुम् इच्छति वा अथवा शृणोति केवलं
आरक्षकः चोरं कण्ठे गृह्णाति
समीचीनं महोदय आरक्षकः चोरं गृह्णाति कुत्र गृह्णाति कण्ठे गृह्णाति अस्तु इदानीं तत्र यत् नरेश महोदय पठितवान् पूर्वं तत् अवधेयं यत् अस्ति ग्रहणं ताडनं प्रहरणम् इत्यादिकं यत्र भवति तत्र सर्वत्र अङ्गस्य सप्तमी विभक्तिरूपम् आवश्यकम् अस्तु
महोदय षष्टिवाक्य किमर्थम् आरक्षकः चोरं
कण्ठे आङ्ग्लभाषायां वदामि हि होल्ड्स् हिम् बै द नेक् इति अस्ति खलु कण्ठे गृह्णाति इति समीचीनं वा कुत्र प्रहरति कुत्र गृह्णाति कुत्र ताडयति इति भवति तस्य अङ्गस्य सप्तमी विभक्तिरूपम् आवश्यकम् अस्ति अत्र अस्तु अस्तु इदानीं प्रश्नः नास्ति चेत् अग्रे गच्छामः सरलाभगिनी अग्रिमम् अभ्यासं पठति वा
आम् महोदय कः कस्मिन् निपुणः कुशलः इति यथोदाहरणं लिखत निपुणकुशालादीनां प्रयोगः प्रथमं कर्णः धनुर्विद्यायां निपुणः दुर्योधनगदायुद्धे निपुणः
दुर्योधनः गदायुद्धे निपुणः समीचीनं भगिनि समीचीनं धन्यवादः गीताञ्जलि भगिनि अग्रिमम्
अस्तु महोदय नलः
नलः अपि दमयन्ति तत्र नलः सम्यक्तया पचति समीचीनं
नलः पाककलायां
कुशलः अथवा निपुणः
निपुणः
तत्र किं भवति कर्णः निपुणः उदाहरणं पश्यामः कर्णः निपुणः तत्र सरलभगिनी तयोः मध्ये कः सम्बन्धः कर्णः निपुणः विशेषणमस्ति विशेष्य
विशेषभावः
अस्ति अतः एव तत्र निपुणः इति अस्ति पुल्लिङ्गे अस्ति स्त्रीलिङ्गे किं भवति निपुणा इति भवति अतः अत्रापि नलः इति अस्ति नलः कुशलः अथवा निपुणः कस्मिन् सः कुशलः अथवा निपुणः इदानीं गीताञ्जलि भगिनी किम् उत्तरम् नलः कस्मिन् निपुणः
नलः पाककलायां निपुणः
इति उत्तरं भवति समीचीनं भगिनि भानु भगिनी अग्रिमम्
विदुरः नीतिशास्त्रे निपुणः
विदुरः नीतिशास्त्रे निपुणः. समीचीनं भगिनि. हा नरेश महोदय.
शकुनिः द्यूतक्रीडायां निपुणः.
हा शकुनिः द्यूतक्रीडायां निपुणः. समीचीनं महोदय. रघुपति महोदय.
बृहन्नला बृहन्नला वीणावादने वीणावादने निपुणा निपुणा आसीत्
अथवा निपुणा इति अत्र निपुणा क्रियपदं न दत्तमस्ति उदाहरणे अतः आसीत् अपि समीचीनमेव. अस्तु समीचीनं महोदय. अस्तु हरि महोदय वदति वा अग्रिमम्.
आम् महोदय.
सत्यं महोदय. नकुलः अश्वशिक्षायां निपुणः. अस्तु अन्तिमं सरलभगिनी अन्तिमं.
मयः शिल्पकलायां निपुणः अस्ति.
मयः शिल्पकलायां कुशलः अस्ति. समीचीनम्. अस्तु हा इदानीम् अग्रे रघुपतिमहोदय अग्रिम अवधेयं पठित्वा तदनन्तरं श्लोकः अस्ति तदपि पठतु महोदय.
ओके. अवधेयं यदा जनेषु निपुणता कुशलता सामर्थ्यम् इत्यादिकं प्रकटयामः तदा यस्मिन् सः गुणः अस्ति तस्य सप्तमी विभक्तिः भवति. एतं श्लोकम् उच्चैः पठत. कस्तूरितिलकं ललाटफलके वृक्षस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणं सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे मुक्तावलिं गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः.
समीचीनं महोदय. इदानीं अस्तु तत्र अवधेयं सर्वे अवगच्छन्ति खलु. यत् उदाहरणं यत् वयं कृतवन्तः पूर्वस्मिन् अभ्यासे तदेव अस्ति. कुत्र निपुणता कुशलता सामर्थ्यम् इत्यादिकं तत्र यस्मिन् गुणः अस्ति तत् तस्य सप्तमीविभक्तिरूपं भवति. वीणाशा वीणावादने इति तादृश. इदानीं एतत् श्लोकं पश्यामः. तत् एतत् श्लोकं किं करोति कृष्णस्य वर्णनं करोति खलु. श्रीकृष्णस्य वर्णनं भूषण वदतु भगिनि. अस्ति इति वदति. अस्तु रघुपतिमहोदय तत्र उदाहरणं दत्तमस्ति.
श्रीकृष्णः कस्मिन् अङ्गे किं धरति इति वदत. यथा श्रीकृष्णः ललाटफलके कस्तूरितिलकं धरति
इति. अस्तु
इति
इदानीम् अग्रे.
वक्षस्थले कौस्तुभं धरति.
वक्षस्थले कौस्तुभं धरति. अस्तु सरला भगिनि.
श्रीकृष्ण नासाग्रे नवमौक्तिकं धरति.
अस्तु धन्यवादः. नरेश महोदय.
श्रीकृष्णः करे कङ्कणं धरति.
कङ्कणं धरति. अस्तु भानुभगिनी.
सर्वाङ्गे हरिचन्दनं भवति.
सर्वाङ्गे हरिचन्दनं भवति. समीचीनं. गीताञ्जलि भगिनि.
श्रीकृष्णः करतले वेणुं धरति.
वेणुं धरति. समीचीनं. अस्तु अतः एतादृशश्लोकं वर्णनं यत्र भवति तद् दृष्ट्वा भवन्तः सर्वे सप्तमीभक्ति इदानीं भवतः किमस्ति निपुणता कुत्र अस्ति. सप्तमीभक्तिरूपस्य प्रयोगे निपुणता अस्ति खलु. अस्तु किं भगिनि.
धन्यवादः. भवतः निपुणः
अस्तु इदानीं
वदने निपुणता अस्ति
हा अस्तु इदानीं कुत्र इति तस्य प्रयोगः एव एतावत् वयं कृतवन्तः इदानीम् अग्रे किं भवति कदा इति एतावत् देशस्य प्रदेशस्य कुत्र अत्र वा देवालये वा इति तादृशः प्रयोगं वयं कृतवन्तः इदानीं कदा समय इति विषयः तत्रापि सप्तमीविभक्तिरूपस्य उपयोगः भवति प्रयोजन तत्रापि प्रयोजककरम् उपयोगकरं भवति अस्तु अत्र सम्भाषणम् अस्ति तत्र जनद्वयम् अपेक्षितम् अस्ति नरेश महोदय अपि गीताञ्जलि भगिनी तत्र तत्र पूर्वं तस्य पूर्वं भानु भगिनी तत्र चित्रं दृष्ट्वा यत् अस्ति तद् पठतु भगिनि तदनन्तरं गीताञ्जलि भगिनी अपि नरेश महोदय सम्भाषणं कुर्वन्ति
आं महोदय कृष्णः कदा उत्तिष्ठति अष्ट उच्चैः पठत अवगच्छत च सूर्यः कदा उदेति सूर्यः कः उदेति सूर्यः कदा अस्तम् एति सूर्यः सायम् अस्तम् एति
उदेति प्रातः सूर्यः
प्रातः उदेति
उदेति अस्तु समीचीनं भगिनि अत्रापि सप्तमीविभक्तिरूपस्य एव आवश्यकता अस्ति सम्भाषणं पश्यामः तदनन्तरम् अवगमनं भवति इति मन्ये अस्तु
महोदय अत्र प्रातः सूर्य उदेति अत्र सप्तमी विभक्ति नास्ति न प्रातः काले
प्रातः काले इति समीचीनं सत्यं महोदय अतः तत्र किञ्चित् क्लेशः भवति अतः एव अहम् उक्तवान् सम्भाषणं पश्यामः तदनन्तरं रूपं कीदृशम् इति सम्यक्तया अवगन्तुं शक्नुमः सत्यं महोदय अस्तु गीताञ्जलि भगिनी नरेश महोदय
आं महोदय एतत् सम्भाषणम् उच्चैः पठत् अम्ब कृष्णः कदा उत्तिष्ठति
वत्स कृष्णः उषः काले उत्तिष्ठति
सः कदा स्नाति
प्रातः एव स्नाति
अम्ब कृष्णः कदा धेनुः चालयति
वत्स प्रातराशानन्तरं धेनुः चालयति
सः कदा भुङ्क्ते
सः धेनुचारणान्तरं भुङ्क्ते
कृष्णः कदा विश्राम्यति
सः उपराह्णे वने एव विश्राम्यति
अम्ब सः कदा गृहम् आगच्छति
सायम् आगच्छति
अम्ब अहं कृष्णस्य गृहं गच्छामि
अद्य मास्तु श्वः गच्छ
अम्ब कदा श्वः भविष्यति
इदानीं निद्रां कुरु ततः जागृहि जागरणान्तरं श्वः भविष्यति
इदानीमेव जागर्मि इदानीमेव श्वः भवतु
वत्स इदानीमेव अद्य एव ह्यः एव श्वः एव
बहु धन्यवादः समीचीनम् अस्ति खलु सम्भाषणम् अस्तु पङ्क्तिशः पश्यामः कृष्णः कदा उत्तिष्ठति कृष्णः उषःकाले उत्तिष्ठति उषःकाले इति सप्तमी विभक्तिरूपम् अस्ति. तत्र सः कदा स्नाति? प्रातः काले एव स्नाति इति सप्तमी विभक्तिरूप तद् स्वीकुर्मः तत्र सम्यक्तया अवगन्तुं शक्नुमः. तत्र कृष्णः कदा धेनुः चारयति? तत्र धेनुः इति पदम् अस्ति. कः वदति वचनं किं धेनुः?
धेनुं चारयति धेनुः. धेनुः
समीचीनं महोदय.
कर्मपदमस्ति.
चारयति स्त्रीलिङ्गे अस्ति इति कृत्वा धेनुः इति अस्ति. समीचीनं. कदा धेनुः चारयति? वत्स प्रातराश अनन्तरं धेनुः चारयति. प्रातराशः इति युक्ते किम्? इति तस्य भोजनम् इति. तदनन्तरं धेनुः चारयति. सः कदा भुङ्क्ते? इदानीं मध्याह्नस्य भोजनम् इति मन्ये. सः धेनुचारण अनन्तरं भुङ्क्ते. कृष्णः कदा विश्राम्यति? सः अपराह्णे वने एव विश्राम्यति. तत्र पश्यतु कालस्य सप्तमीविभक्ति, प्रदेशस्य अपि सप्तमीविभक्ति. सः कुत्र विश्राम्यति? वने विश्राम्यति. कदा विश्राम्यति? अपराह्णे विश्राम्यति इति. अतः कालसम्बन्ध तत्र सप्तमीविभक्ति, देशसम्बन्ध अपि सप्तमीविभक्ति. सः अपराह्णे वने एव विश्. तत्र अनिकम् इति अस्ति खलु? अनिकं कृत्वा इति.
सप्तमी विभक्ति अपराह्णे
सप्तमी अस्ति. सः कदा गृहम् आगच्छति? सायङ्काले इति स्वीकुर्मः. सायङ्काले आगच्छति. अम्ब अहं कृष्णस्य गृहं गच्छामि. अद्य मास्तु, श्वः गच्छ. कदा श्वः भविष्यति? इदानीं मास्तु. तत्र बहु समीचीनमस्ति, किन्तु तत्र प्रायशः सप्तमी व्यक्तिरूपं नास्ति इति मन्ये. किन्तु बहु सन्तोषजनकम् अस्ति खलु तद् तत्र वाक्यानि. इदानीं कुत्र भगिनि?
अहं गच्छामि. धन्यवादः.
अस्तु अस्तु भगिनि. अस्तु, नववादनम् अभवत्. अस्तु, धन्यवादः भगिनि. नमस्कारः. इदानीं तत्र इदानीं निद्रां कुरु. ततः जागृहि. प्रायशः जागृहि.
जागृहि लोट् लकार अस्ति. जागृहि
इति चिन्तयामि महोदय. जागरण अनन्तरं श्वः भविष्यति. इदानीमेव जागर्मि. इदानीमेव श्वः भवतु. वत्स इदानीम्, इदानीमेव, अद्य, अद्य एव, ह्यः, ह्यः एव, श्वः, श्वः एव इति. अस्तु अस्तु, बहु श्वः. ह्यः अस्ति महोदय. ह्यः, ह्यः, अद्य, श्वः, परश्वः, प्रपरश्वः. स्मरति वा? न, श्वः इति इस् टुमारो. ह्यः इति यस्टर्डे. अद्य टुडे, ह्यः यस्टर्डे, श्वः टुमारो. अतः एव तत्र माता किं वदति? इदानीं निद्रां करोतु, यदा जागरणं भवति तत्र श्वः भविष्यति. अस्तु महोदय.
आं महोदय.
हा, निद्रानन्तरं श्वः भविष्यति इति माता वदति. हा अस्तु, अस्तु इदानीं
महोदय अद्य अद्य एव ह्यः एव श्वः श्वः एव आङ्ग्लभाषा टुडे टुडे.
यथा वयं भारतीयाः वयं वदामः टुडे इस् टुडे ओन्लि इति. हा इति तादृश अर्थः अस्ति भगिनि तत्र खलु. हा
आङ्ग्लभाषा सुन्दरं नास्ति किन्तु संस्कृतं सुन्दरं.
हा हा, अद्य अद्य एव ह्यः ह्यः एव श्वः श्वः एव इति सत्यं भगिनि. हा अस्तु, इदानीम् अग्रे गच्छामः, अभ्यासं कुर्मः. तत्र भानुचेतनी महोदय नमस्कारः, श्रूयते वा?
महोदय क्षम्यता महोदय, बहु विलम्बं जातं महोदय.
अस्तु अस्तु अस्तु. हा, किन्तु भवान् जानाति वा वयं कुत्र स्मः इति?
आं महोदय, पेज् 73 इदानीं.
हा अस्तु 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 अस्तु. इदानीं भवन्तम् अपि अस्तु, अहं पृच्छामि अग्रे. अस्तु, नरेश महोदय अग्रिम अभ्यासः तत् करोतु महोदय.
आं महोदय, अभ्यासः कदा इति उपयोगद्वारा यथोदाहरणं प्रश्ननिर्माणं कुरुत. उदाहरणं दीपावली कार्तिक अमावस्यायां भवति. दीपावली कदा भवति? संक्रान्तिः सूर्यस्य मकरराशिप्रवेशदिने भवति. संक्रान्तिः कदा भवति?
हा इति अस्ति. हा, इदानीम् अभ्यासः सुलभः अस्ति वा अथवा कठिनः अस्ति वा?
सुलभः
सुलभः अस्ति. अस्तु महोदय, हा अग्रिममपि करोतु.
विजयदशमी विजयदशमी महावम्याः अनन्तरदिने आश्वयुज शुक्लदशम्यां भवति. विजयदशमी कदा भवति
इति अस्ति. अस्तु, तत्र गीताञ्जलि भगिनी अग्रे.
महोदय, एकः सन्देहः अस्ति. उदाहरण दीपावली कार्तिक किमर्थं डेश् अस्ति?
कार्तिकमासस्य अमावास्यायाम् इति
डेश् माने
किन्तु तत्र मासस्य तदपि वक्तव्यमस्ति खलु, कस्मिन् मासे इति. केवलम् अमावस्याम् इति वदामश्चेत् पर्याप्तं नास्ति खलु भगिनि?
यदि समस्तपद भवति चेत् कार्तिक अमावस्यां.
तदेव समस्तपदम् इति एव चिन्तयन्ति इति मम अहं मन्ये महोदय. किन्तु तत्र डेश् इति किमर्थं स्थापितवन्तः इत्युक्ते अवगमनार्थम्.
आम्
डेश् इत्युक्ते लोपपदं,
तत्र अकारस्य कार्तिकामावास्यायाम् इति समस्तपदं भवति.
किमर्थं डेश् अस्ति?
यदि कार्तिकामावास्यायाम् इति अस्ति चेत् वयं मनसि एतत् किं कुर्मः, अस्तु एतत् संयुक्तपदमस्ति, कार्तिकमासः अस्ति, तस्य अमावासातिथ्यां दीपावलिः भवति इति चिन्तयामः खलु. तावदेव, केवलं स्पष्टीकरणार्थं. तावदेव, हा, अन्यत् किमपि नास्ति. हा, तत्र अमावस्यायाम् इति, तत्र अमावस्या इति तिथिः इति प्रायशतिथिः स्त्रीलिङ्गे अति अस्ति इति कृत्वा अमावस्यायाम् इति अस्ति इति मन्ये. अमावस्या तिथिः इति भवति प्रायशः.
हा,
सत्यं महोदय. हा, तिथिः तितौ इति. मति शब्दवत् हा अस्तु भानुभगिनी अग्रे अस्तु गीताञ्जलिभगिनी भवती वदति खलु अस्तु
महोदय तिथिः सर्वे स्त्रीलिङ्गं
तिथिः इति तिथिः मति शब्दवत् स्त्रीलिङ्गपदम् अस्ति
एकादशी द्वादशी
त्रयोदशी
पूर्णिमा
हा सर्वं स्त्रीलिङ्गे एव अस्ति तत्र द्वादशी इति किं भवति विशेषणं भवति तिथिशब्दस्य
तत्र तु तिथिशब्दः नास्ति शुक्लदशम्यां दशमी
स्त्रीलिङ्गे अस्ति
महोदय दशमी केवलं महोदय
किं महोदय तितौ इति किमर्थमस्ति तितौ
पुण्यतिथौ
किमर्थं तितौ अपि समीचीनमस्ति
सप्तमी पुण्यतिथौ सप्तमी भक्ति पुण्यतिथौ
तदपि सम्यक् एव अस्ति किमर्थं तिथ्याम् अस्ति महोदय एतत् किमर्थमस्ति चेत् मतिशब्दस्य सप्तमी विभक्तिरूपस्य रूपद्वयमस्ति खलु हरिशब्दवत् अस्ति नदीशब्दवत् अस्ति अतः तिथिः हरि पुल्लिङ्गरूपं तादृश ह्रस्वैकार इति चिन्तयामश्चेत् तिथौ स्त्रीलिङ्गम् इति चिन्तयामश्चेत् तिथ्यां द्वयमपि साधु यत् वयं सर्वदा शृण्मः तदस्ति तिथौ इति किन्तु तिथ्यामपि तदपि समीचीनमस्ति स्त्रीलिङ्गे अस्ति इति कृत्वा अस्तु भानुमहोदय समीचीनं वा अस्तु अस्तु
गीताञ्जलि
अस्तु गीताञ्जलि भगिनी वदतु
गुरुपूजा आषाढपूर्णिमायां भवति गुरुपूजा कदा भवति
अस्तु इति प्रश्नः अग्रिमं
युगादिः चैत्रशुक्लप्रतिपदायां भवति युगादिः कदा भवति
इति प्रश्नः अस्तु भानुभगिनी
आं महोदय गणेशोत्सवः भाद्रपद शुक्लचतुर्थ्यां भवति गणेशोत्सवः कदा भवति
इति प्रश्नः अस्तु अग्रिमम्
शिवरात्रिमहोत्सवः माघकृष्णचतुर्थश्यां भवति शिवरात्रिमहोत्सवः कदा भवति
इति प्रश्नः समीचीनं भगिनि अस्तु नरेश महोदय अग्रे
महोदय श्रीकृष्णजयन्ति श्रावणकृष्णाष्टम्यां भवति श्रीकृष्णजयन्ति कदा भवति इति प्रश्नः अस्ति श्रीरामजन्म चैत्रशुक्लनवम्यां भवति श्रीरामजन्म कदा भवति इति प्रश्नः अस्ति
इति प्रश्नः अस्ति समीचीनं महोदय रघुपतिमहोदय अग्रे
आं महोदय महाभारतयुद्धसमाप्तिः अमावास्यायां भवति महाभारतयुद्धसमाप्तिः कदा भवति
तत्र मासः न दत्तमस्ति खलु महोदय
अमावास्या
केवलम् अमावास्या तिथिः दत्तमस्ति
कस्मिन् कस्यां तिथ्यां भवति
इति तदपि प्रश्नः कर्तुं शक्नुमः. समीचीनं महोदय, अस्तु. हा सत्यम्, अस्तु. हरिमहोदय वदति वा अग्रिम. अस्तु, एकनिमिषः. अस्तु, क्षम्यतां महोदय. रघुपतिमहोदय, भवान् द्वयं कृतवान्
वा? न महोदय, न कृतम्. करोमि. कृष्णस्य गीतोपदेशः इत्युक्ते गीताजयन्ती मार्गशीर्षशुक्लैकादश्यां भवति. सोरि, मार्गशीर्षशुक्लैकादश्यां भवति कृष्णस्य गीतोपदेशः. अथवा गीताजयन्ती कदा भवति?
गीताजयन्ती कदा भवति इति प्रश्नः. समीचीनं महोदय, अस्तु. हरिमहोदय, अग्रे वदति वा?
आम् महोदय. मनुष्याणां क्रीडाशक्तिः बाल्ये भवति. मनुष्याणां क्रीडाशक्तिः कदा भवति
इति प्रश्नः. समीचीनं. हा,
नराणां चिन्ता
वृद्धत्वदशायां
भवति. नराणां चिन्ता कदा भवति
इति प्रश्नः. समीचीनं महोदय, अस्तु. भानुचैतन्य महोदय, अन्तिमम् एकमेव अस्ति, तद् कृत्वा अग्रिमम् अध्यायं गन्तुं शक्नुमः. करोतु महोदय.
तृष्णायाः शान्तिः कदापि न भवति. तृष्णायाः शान्तिः कदा भवति?
कदापि न भवति. समीचीनं महोदय. अस्तु, इदानीं भवानेव अग्रिमम् अध्यायः यदस्ति तत् पठतु. अत्र प्रश्नः अस्ति वा कदा इति प्रयोगस्य विषये? अस्तु, हा, अस्तु. भानुचैतन्य महोदय, अग्रिम अध्यायः.
महोदय, श्वः कस्य जयः? श्वः कस्य जयः? उच्चैः पठितः जानीत च. अद्य, श्वः, परश्वः, प्रपरश्वः, ह्यः, परह्यः, प्रपरह्यः. अद्य सोमवासरः, श्वः मङ्गलवासरः, परश्वः बुधवासरः, प्रपरश्वः गुरुवासरः, ह्यः रविवासरः, परह्यः शनिवासरः, प्रपरह्यः शुक्रवासरः.
तत्र किमर्थं द्विवारं दत्तमस्ति इति कोऽपि जानाति वा?
अहं
तदेव चिन्तयामि महोदय. मुद्रणदोष प्रायशः इति खलु. अस्तु महोदय, तत्र एव प्रथम तदनन्तरं यत् यः परिच्छेदः अस्ति तमपि.
एतं प्रसङ्गम् उच्चैः पठत. कुरुक्षेत्रे युद्धं प्रवर्तमानम् एव अस्ति. कौरवाणां पाण्डवानाञ्च पक्षे महारथाः, अधिकाः योद्धाः, अनेके मृताः, सहस्रशः सैनिकाः भग्नवायवाः जाताः, कर्णः अपि हतः. युद्धस्य षोडशः दिवसः. चिन्ताकुलः युधिष्ठिरः एवं विषीदति. अहो मम
दौर्भाग्यं. अद्य तावत् पश्यामः. प्रथमं तत् पश्यामः. अस्तु, अत्र विषयः कः इत्युक्ते, यथा हरिमहोदय पूर्वं पृष्टवान्, बहु समीचीनः प्रश्नः आसीत्, श्वः इत्युक्ते किम् इति. हरिमहोदय, इदानीम् उत्तरं प्राप्तं वा?
आम् महोदय.
तत्र अद्य, श्वः, परश्वः, प्रपरश्वः, ह्यः, परह्यः, प्रपरह्यः, एतत् वयम् अभ्यासपुस्तके अपि कृतवन्तः. अत्र केवलं सप्तमी विभक्ति, तस्य सम्बन्धः तत् प्रदर्शयितुम् अत्र पुनर् अत्र दत्तमस्ति इति मन्ये. इदानीम् एतत् पश्यामः. तत्र भानुचैतन्य महोदय, तद् परिच्छेदः कुरुक्षेत्रे इति, तत् पङ्क्तिशः पुनरेकवारं पठित्वा किम् अवगच्छति इति वदतु महोदय.
महोदय, एकः प्रश्नमस्ति.
हा, प्रश्नः वदतु महोदय.
श्वः, परश्वः, प्रपरश्वः ह्यः पर्यः प्रपर्यः सर्वे सम्बन्धम् अद्य अद्य सो आल् आल् रिलेशन्स् आर् फ्रम् नौ
अद्य इत्युक्ते टुडे अद्य इत्युक्ते टुडे श्वः इत्युक्ते टुमारो
टुमारो
डे आफ्टर् टुमारो टु डेस् हा डे आफ्टर् डे आफ्टर् टुमारो इति यस्टर्डे डे बिफोर् यस्टर्डे द डे बिफोर् दट् इति
सर्वे अभियानि महोदय
किं महोदय
सर्वे अभ्ययानि
सत्यं सत्यं सत्यम् इति मन्ये अद्य अद्यापि अव्ययम् अस्ति इति तत्तु सत्यं श्वः सत्यं महोदय अव्ययम् इति मन्ये सत्यं
महोदय महोदय अद्य पदं विसर्ग नास्ति किन्तु सर्वे अन्यानि पदानि
अन्येषु पदेषु विसर्गः अस्ति अस्ति सत्यं भगिनी तत्र किमपि महत्त्वपूर्णम् अस्ति न वा इति न जानामि केवलं रूपं तादृशम् अस्ति तावदेव
अद्य रूपं प्रथमविभक्ति एकवचन
तद् अव्ययम् अस्ति भगिनि अतः तत्र परिवर्तनं न भवति अस्तु भानुचैतन्य महोदय तत्र कुरुक्षेत्रे इति तत्र पङ्क्तिशः
आं महोदय अहं वदामि एकं मन्यं प्रश्नमपि अस्ति महोदय
वदतु
अद्य श्वः कथं पदं भवति महोदय किञ्चित् कथा अस्ति वा
समीचीनः प्रश्नः अस्ति महोदय न जानामि उत्तरं न जानामि केवलम् एतत् पदम् अस्ति इति जानामि तस्य निर्माणम् अथवा एतस्य पदस्य एषः अर्थः कथम् इति तद्
सर्वे
प्रायशः व्याकरणदृष्ट्या अपि प्रायशः न कर्तुं शक्नुमः इति मन्ये महोदय
अतः कोऽपि कथा
अहं न जानामि महोदय श्वः इति तस्य न जानामि महोदय
कुरुक्षेत्रे युद्धं प्रवर्तमानम् एव अस्ति इदानीं साम्प्रतं युद्धं भवति
प्रचलति इदानीं
युद्धे किं युद्धे कौरवाणां पाण्डवानां च पक्षे महारथाः अधिकाः योधाः अनेके मृताः वयं जानीमः अष्टादश अक्षौहिणी सेना भागमासीत् अतः बहु महारथाः
ऋतिकाः
बहवः
तेषां हरणे मरणं जातं
सहस्रशः सैनिकाः भग्नवयवाः जाताः
पक्षे इति सप्तमीभक्तिरूपम् अस्ति कौरवाणाम् इति किम् अस्ति कौरवाणां विभक्ति किं विभक्तिका
षष्टि
कौरवाणां पाण्डवानां षष्टि विभक्ति च पक्षे कस्य पक्षः पाण्डवानां पक्षः इति महारथाः रथिकाः योद्धाः अनेके मृताः तत्र महारथाः
तत्र योधाः वा योद्धाः वा
योधाः इति दत्तमस्ति तत्र वयं दृष्टवन्तः खलु एतत् पदं योद्धा इति कीदृशपदं कोऽपि वदति वा?
अकारान्त योद्धः, अकारान्त पुल्लिङ्गशब्दः, योद्धः योद्धा योद्धारः ऋकारान्त वा योद्धारः?
नरेश महोदय किं चिन्तनं?
योद्धा ऋकारान्त अस्ति,
योधा योधः अकारान्त।
हा तत्र योद्धा योद्धा इति योद्धा अपि, किन्तु एतत् योद्धाः अस्ति।
अहं चिन्तयामि योधः योधौ योधाः।
हा प्रायशः तादेव अकारान्तपदमेव अस्ति इति मन्ये। सत्यं सत्यं महोदय। हा भानुचेतिनी महोदय, तत्र वयं पूर्वं यद् दृष्टवन्तः तत्र योद्धा इति अस्ति, दकारः हा अल्पप्राण अपि महाप्राण द्वयमपि आसीत् तत्र, किन्तु अत्र केवलम् अल्पप्राण अस्ति, क्षम्यतां महाप्राण।
प्रातिपदिकं किं महोदय?
योधः 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 इति देवशब्दवत् अकारान्त योधः इति।
एतत् महोदय तस्य एतस्य न तस्य योद्धा योद्धारः।
हा तत् हा योद्धारः इति तत्र अल्पप्राण महाप्राण द्वयमपि धकारः द्विवारम्
आगच्छति। किं महोदय
तत्र योद्धृ ऋकारान्तपदं
योद्धृ?
हा
ओहो ऋकारान्त
हा पितृ इति
स्मरामि
हा योद्धृ इति, अतः योद्धा योद्धा योद्धारौ योद्धारः
महोदय। सहस्रः सैनिकाः भग्नावयवाः जाताः, तत्र युद्धक्षेत्रे बहूनि अवयवानि
अवयवः इति
विशेषणं
न अवयवः इत्युक्ते
अवयव इत्युक्ते शरीरस्य अङ्गानि
अङ्गाः अङ्गाः भागः
भग्नावयाः
भग्न अवयवाः इत्युक्ते
भग्न विशेषणमस्ति सैनिकायाः सैनिकाया
हस्तः हस्तः कोऽपि हस्तस्य प्रहरणं करोति इदानीं हस्तः भग्नं भग्नः पादस्य प्रहरणं भवति अथवा पादे प्रहरणं भवति इदानीं किं भवति पादः भग्नः भग्न अवयवाः इत्युक्ते तत्र बहुव्रीहि समासः इति भवति यस्य अवयवः भग्नः इति बहु अग्रे गत्वा एतत् पश्यामः बहुव्रीहि समासः इति किन्तु भग्न अवयवः यस् तत्र सैनिकः अस्ति तस्य भग्न तस्य अवयवस्य भग्नः भवति
भग्नं किम् अस्ति
भग्नं हा भग्नम् इत्युक्ते नाट् देर् लूसेस् एन् आर्म् इति डेस्ट्रायिड् इति
शिल्पभग्नः भवति शिल्प महोदय
रघुपतिमहोदय प्रश्नः
हा हा महोदय अत्र कौरवाणां पाण्डवानां च पक्षे महारथाः रथिकाः योद्धाः अनेके मृताः इति अस्ति अनेक इति किम् अस्ति योद्धा अनेकाः अथवा अनेके किं
अनेके इति पुल्लिङ्गे सह तवते इति तादृशरूपम् अस्ति
अनेकः अनेकम् अनेका स्त्रीलिङ्ग अस्ति अनेकः
न तत्र प्रायशः अनेके इति अनेके मृताः
पठितवान् पूर्वम् अनेके इति परन्तु
प्रश्नः समीचीनः अस्ति महोदय
कथम्
अनेकः इति प्रायशः विशेषपदम् अस्ति द्रष्टव्यमस्ति महोदय किन्तु तत्र अनेके इति बहुवचन प्रथमाविभक्तिरूपमेव अस्ति
अहं चिन्तितवान् अनेके ते इति परन्तु अनेकाः
अनेके इति एव सत्यं सर्वे इति तादृशरूपमेव अस्ति किन्तु द्रष्टव्यमस्ति किमर्थं हा सर्वनाम तादृश अस्ति द्रष्टव्यमस्ति महोदय, किन्तु बहुवचन प्रथमाविभक्तिरूपम् एव अस्ति, तद् विशेषणं भवति मृत् तद् सैनिकाः अथवा महारथाः इति तादृश तेषां पदानां विशेषणं भवति, अपि मृताः इति मृताः अपि विशेषणं भवति. हा द्रष्टव्यमस्ति किन्तु प्रथमविभक्तिरूपम् एव अस्ति बहुवचनम्.
अस्तु महोदय.
वनचेतनी महोदय अग्रे.
आं महोदय, अनेके सर्वनामशब्दः अतः तत्रूपम् इति अहं मन्ये महोदय.
हा प्रायशः सत्यं महोदय, किन्तु
अनेकः सर्वः
अनेकः हा तत् किन्तु एकवारं रूपं
परन्तु अनेकाः अपि अहं दृष्टवान् अनेकाः अनेकं
सत्यं महोदय, रूपद्वयं भवितुम् अर्हति अतः तदपि अस्ति खलु. अतः हा किन्तु मम अपि एकवारं यदि अहमपि पश्यामि भवान् अपि पश्यतु.
किन्तु
महोदय क्षम्यतां महोदय, महारथा रथिका योद्धाः इति पदं द्विवचन बहु द्वितीयविभक्ति बहुवचनपदम् अस्ति वा, कर्मपदम् अस्ति वा? मृताः विशेषणम् अस्ति वा कर्मपदम् अस्ति वा?
अनेके
विशेषण महारथाः रथिकाः विशेषणमस्ति, योद्धानां विशेषणमस्ति महारथाः रथिकाः इति एव.
तदपि भवितुम्
अर्हति
न तु अपि महारथाः सन्ति रथिकाः सन्ति योद्धाः सन्ति इति तदपि
मम प्रश्नः कर्मपदं
न कर्तृपदं कर्तृपदं तत्र क्रियापदं किम् अस्ति भगिनि तस्मिन् वाक्ये?
मृताः
प्रथमविभक्ति बहुवचनं
न मृताः इति, किन्तु क्रियापदं किं क्रियापदं तत्र न लिखितं.
मृताः मृताः सन्ति वा?
सन्ति मृताः सन्ति इति सन्ति इति क्रियापदम् अस्ति अत्र.
हा
महारथाः सन्ति महारथाः मृताः सन्ति सैनिकाः अथवा रथिकाः सन्ति रथिकाः मृताः सन्ति इति इति रूपं भवति तत् अस्तु हा अस्तु. इदानीं
हा
कर्णः अपि हतः तत्रापि विशेषण
युद्धस्य षोडशः दिवसः तत्तु स्पष्टमेव. चिन्ताकुलः युधिष्ठिरः एवं विशीदति. युधिष्ठिरः बहवः जनाः मृताः इति युधिष्ठिरः
जानाति
प्रायः, अतः चिन्ताकुलः भवति अथवा युद्धं कथं
जयं कथं प्राप्नुमः इति चिन्ता भवति तस्य, अतः सः एवं विषीदति. विषीदति इत्युक्ते इति चिन्तनं करोति इति प्रायशः अस्ति. विषादयुक्तचिन्तनं करोति सः. अस्तु तद् अग्रिमवर्गे एतत् पठामः, किन्तु अत्रापि श्वः परश्वः तत्रापि हा तस्य रूपं कथं भवति इति अग्रिमवर्गे पश्यामः. अस्तु, समयः जातः. अस्तु, प्रश्नः अस्ति वा? अस्तु, अहं गृहपाठं प्रेषयामि ईमेल् द्वारा. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादः, अग्रिमवर्गे मिलामः. नमस्कारः
महोदय.
नमस्कारः.